एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः सिंहप्रासाद स्थितम् प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयम् एत्य ह्य पदभारम् अगृह्णात्। सिंहप्रासादस्थितम् प्रधानमन्त्री कार्यालयम् प्राप्तम् प्रधानमन्त्रिणम् दाहालम् मुख्य सचिव शंकरदास वैरागी सचिवा कर्मचारिणश्च अभ्यार्थयन्। शीतलनिवासस्थिते राष्ट्रपति कार्यालये पदगोपनीयतयोः शपथग्रहणस्य अनुपदमेव नवनियुक्तः प्रधानमन्त्री दाहाल लैनचोरवर्तिनम् हुतात्म स्मारकम् प्राप्य हुतात्मनः प्रति श्रद्धाञ्जलिम् अर्पयत्। नवनियुक्तः उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः पदभारम् अगृह्णात्। सिंहप्रासादस्थितम् अर्थमन्त्रालयम् प्राप्य पदभार ग्रहणानन्तरम् मन्त्री पौडेलः संचारकर्मेभ्यः प्रतिक्रियाम् ददत् संकटस्य बिन्दौ विद्यमानम् अर्थतन्त्रम् सुरक्षितस्थानम् प्रत्यावर्तयितुम् व्यवस्थितम् विधातुम् च आत्मना कार्यम् विधीयते इत्यभासत। एवमेव नवनियुक्तः उपप्रधान भौतिक पूर्वाधार यातायात मन्त्री नारायण काजी श्रेष्ठः सिंहप्रासादस्थिते भौतिक पूर्वाधार यातायात मन्त्रालये पदभार ग्रहणानन्तरम् संचारकर्मिभिः सह ब्रुवन् इतः पूर्वम् सम्पन्नेभ्यः अनुकूल कार्येभ्यः नैरन्तर्यम् प्रदाय क्रियान्वयनस्य क्रमे उत्पन्नाः समस्याः समाधाय अग्रे प्रवर्ध्यते इति प्रतिबद्धताम् अभिव्यनक। ह्य एव उपप्रधान गृहमन्त्री लामिछाने च पदभारम् अगृह्णात्। सिंहप्रासादवर्तिनी गृहमन्त्रालये पदभार ग्रहणानन्तरम् संचारकर्मिणाम् जिज्ञासाम् समाधान असौ अवदत् शान्ति सुव्यवस्थयोः कृते गृहप्रशासनेन पूरणीयायाम् भूमिकायाम् सर्वाधिकम् कार्यम् विधीयते। तत्पूर्वम् राष्ट्रपतिना विद्यादेवी भण्डारिणा प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन सहिताः अष्टौ मन्त्रिणः पदगोपनीयतयोः शपथेन प्रतिज्ञापिताः आसन्। शीतलनिवासवर्तिनी राष्ट्रपति कार्यालये आयोजिते विशेष समारोहे राष्ट्रपतिः भण्डारी उपप्रधानार्थमन्त्रिणम् विष्णुप्रसाद पौडेलम् उपप्रधान भौतिक पूर्वाधार यातायात मन्त्रिणम् नारायण काजी श्रेष्ठम् उपप्रधान गृहमन्त्रिणम् रवि लामिछाने भिदञ्च पदगोपनीयतयोः शपथम् अग्राहयत्। एवमेव बिना विभागीय मन्त्रिणः दामोदर भण्डारी ज्वाला कुमारी शाह राजेन्द्र राई अब्दुल खाँच पदगोपनीयतयो शपथम् गृहीतवन्तः। एतेभ्यः कार्यभारः पश्चात् निर्धारयिष्यते। शपथग्रहण समारोहे उपराष्ट्रपतिः नन्दबहादुर पुन निवर्तमान प्रधानमन्त्री शेरबहादुर देउवा राष्ट्रिय सभाया अध्यक्ष गणेश प्रसाद तिमलसिन्हा कार्यवाहक प्रधान न्यायाधीश हरिकृष्ण कार्की पूर्व प्रधानमन्त्रिणः मन्त्रिपरिषदः पूर्वाध्यक्षः सांवैधानिक निकायानाम् प्रमुखाः पदाधिकारिणः विभिन्न राजनैतिक पदानाम् दलानाम् नेतारः वैदेशिक कूटनीतिक नियोगानाम् प्रमुखाः प्रतिनिधयः सांसदाः अन्य विशिष्ट महानुभावाः संचारकर्मिणश्च उपस्थिताः आसन्। मन्त्रिपरिषदः प्रथमोपवेशेन राष्ट्रस्य जटिलम् समावयपूर्णञ्च अर्थतन्त्रम् संशोध्य प्रभावकारितया अग्रे वर्धनाय निर्णीतमस्ति। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषद कार्यालये गतसायम् उपविष्टेन मन्त्रिपरिषदः उपवेशेन सुशासनाय कार्यम् कर्तुम् जनतया अनुभूताम् असहजताम् न्यूनीकर्तुञ्च सर्वकारः गभीरेण प्रवर्तते इति निर्णया विहिताः सन्ति। उपवेशस्य समाप्तिमनु नवनियुक्तः प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः संचारकर्मिभिः भाषमाण जनतया पारपत्रस्य यानचालकानुमतिपत्रस्य च प्राप्तये दीर्घकालम् यावत् प्रतीक्षणस्य अवस्थाम् निवारयितुम् प्रभावकारितया जनतासु सेवाम् प्रवाहयितुञ्च निर्णीतमिति प्रत्यपादयत्। प्रतिनिधिसभायाः उपवेशस्य आह्वानस्य विषयेऽपि निर्णीतमस्तीति असौ असूचयत। मन्त्रिपरिषदः उपवेशेन सार्वजनिकम् सेवा प्रवाहम् सरलम् विधातुम् महत्वपूर्ण निर्णय विहितोऽस्ति। उपवेशेन सेवा प्रवाहम् सरलम् न्यूनव्यय साध्यम् समस्या मुक्तञ्च विधातुम् निर्णीतमिति उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः संचारकर्मिणः अज्ञापयत्। मन्त्रिभिः वर्तमानार्थिक वर्षाय वर्धितम् वेतनम् न ग्रहीतुम् निर्णीतमिति च असौ असूचयत्। नेपालस्य प्रधानमन्त्रीपदे नियुक्तिमालक्ष्य नेकपा माओवादी केन्द्रस्य अध्यक्षाय पुष्पकमल दाहाल प्रचण्डाय संयुक्त राज्य अमेरिका देशेन वर्धापनम् शुभकामना च व्यक्तिस्तः। नेपालस्थितेन अमेरिका देशीय राजदूतेन डीन आर थम्पसन इत्यनेन ट्वीटर सञ्जालस्य माध्यमेन प्रधानमन्त्रिणे दाहालाय वर्धापनम् ज्ञापितम् वर्तते। राजदूत थम्पसन ट्वीट सञ्जाले नेपाल अमेरिका देशहरूमध्ये विद्यमानम् पञ्च सप्तति वर्षाणाम् दीर्घकालिकम् सहकार्यम् इतोपि सुदृढीकर्तुम् लोकतन्त्राय मानवाधिकाराय आर्थिक समृद्धाय च मिलित्वा कार्यम् कर्तुञ्च अमेरिका देशात् तत्परो स्थिति उल्लिखति। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड प्रधानमन्त्री र बालवाटार वर्तिनी सर्वकारीय निवासे कामपि व्याडम्बर पूर्णाम् सामग्रीम् न क्रेतुम् निर्दिशति। प्रधानमन्त्रिणः दाहालस्य स्वकीय सचिवस्य रमेश मल्लस्य अनुसारेण प्रधानमन्त्रिणः सचिवालयस्य माध्यमेन कामपि नवीनाम् व्याडम्बर पूर्णाम् च सामग्रीम् न क्रेतुम् एवं निर्दिष्टम् वर्तते। मधेस प्रदेश सभाया सदस्या आगामिनि शुक्रवासरे पदगोपनीयतयो शपथम् गृहीतार। प्रदेश सभायाम् ह्य उपविष्टे सर्वदलीयोपवेशे अस्यैव पौषस्य पञ्चदशे दिवसे शुक्रवासरे द्विवादने पदगोपनीयतयो शपथ ग्रहणाय सहमति धृतेति प्रदेश सभा सचिवालयस्य सचिव रंजित कुमार यादव अज्ञापयत्। सर्वकारस्य विधि विषयक परामर्शदात्रा खम्बबहादुर खाती इत्यनेन ह्यो महान्यायाधिवक्तुः पदात् त्यागपत्रम् दत्तमस्ति। महान्यायाधिवक्त्रा खाती प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य समक्षम् त्यागपत्रम् आर्पयत्। नेपाल सर्वकारेण आयतातिरिक्त टीकाकरणेभ्य स्वस्य नागरिकेभ्य अतिरिक्तम् टीकाकरणम् आधातुम् पूर्वकार्यम् विहितम् अस्ति। कोविड उनविंशतेः संक्रमणस्य संकटस्य सम्भावनाम् आकलय्य आयतातिरिक्त टीकाकरणेभ्य नागरिकेभ्य अतिरिक्त टीकाकरणस्य मात्राम् दातुम् पूर्वकार्यम् कृतमिति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। निवर्तमानार्थमन्त्री जनार्दन शर्मा कथयति वर्तमानार्थिक वर्षे आर्थिक वृद्ध्यनुपात प्रतिशतम् षड्व्य अधिको भविष्यति। ह्य मन्त्रालये आयोजिते पत्रकार सम्मेलने शर्मावोचत् अस्मिन् वर्षे अर्थतन्त्रम् गभीरबिन्दुतः संचलत् सदपि क्रमेण सुधारोन्मुखम् जायमानम् वर्तते। भूकम्पोत्तरस्य प्रतिकूलावस्थायाः कोविड उनविंशते महामार्याः रूस युक्रेन युद्धस्य च कारणैः सृष्टस्य प्रभावस्य विषयम् पूर्ववर्ति सर्वकारेण प्राथमिकतायाम् स्थापितः आसीत् इति च शर्मा असूचयत्। गृहमन्त्रालयेन गत विक्रम वर्षीयाम् गृह प्रशासन सुधार कार्य योजनाम् स्वीकृत्य जनपद प्रशासन कार्यालयानाम् सूचके आद्रतायाः एकतानुगमन मूल्यांकन संरचनायाः अनुसारेण अनुगमनम् विधाय कार्य सम्पादनम् अतिरिक्तम् प्रभावकारी विहितम् अस्ति। मन्त्रालये ह्य वर्तमान गृहमन्त्रिणः बालकृष्ण खाँड इत्यस्य पदात् बहिर्गमनस्य क्रमे आयोजिते कार्यक्रमे मन्त्रालयेन अष्टाविंशतेः जनपद प्रशासन कार्यालयानाम् सूचकेषु आद्रतायाः एकतानुगमन मूल्यांकन संरचनायाः अनुसारेण अनुगमनम् विधाय कार्य सम्पादनम् अतिरिक्तम् प्रभावकारी विहितमिति ज्ञापितम् वर्तते। नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा भाषते नेपाली कांग्रेस दलेन प्रतिपक्षे स्थित्वा उत्कृष्टा भूमिका निरूह्यते। पोखरायाम् सञ्चल्यमाने दशम संस्करणस्य नेपाली साहित्य महोत्सवे महामन्त्री थापा नेपाली कांग्रेस दलेन अतःपरम् दल संघटनेषु केन्द्रीभूय प्रतिग्रामम् दल संघटनानि सशक्तानि विधास्यन्ते इत्यवोचत। महामन्त्री थापा दलाभ्यन्तरे स्थितान् कलंकान् निवारयितुम् नीति निर्धारण विषयकम् अधिवेशनम् विधात्तव्यम् धारणाम् व्यक्तवान्। रूस देशीयेन विमान सुरक्षा सैन्य बलेन युक्रेन देशेन रूस देशस्य दक्षिण भागस्य एंगेल्स वर्तिनः विमान शिविरस्य निकटे ड्रोन नामक कोपकरणेन आक्रमणम् विहितमिति ज्ञापितम् वर्तते। घटनायाम् त्रयो रूस देशीयाः प्राविधिकाः मृताः इति रक्षा मन्त्रालयम् उद्धरन्ति तास नामधेया रूस देशीय समाचार संस्था ज्ञापयति। इति समाचाराः।